द्वादशोऽध्यायः शरीरवाङ्मनोभिः क्रियमाणासु सर्वासु क्रियासु स्वस्य असङ्गत्वम् बुद्ध्वा स्वात्मनिष्ठाम् उद्घोषयति जनकः। जनक उवाच, कायकृत्यासहः पूर्वम् ततो वाग्विस्तरासहः अथ चिन्तासहस्तस्मात् एवमेवाहमास्थितः। प्रीत्यभावेन शब्दादेः अदृश्यत्वेन चात्मनः विक्षेपैकाग्रहृदय एवमेवाहमास्थितः। समाध्यासादिविक्षिप्तौ व्यवहारः समाधये एवम् विलोक्ये नियमम् एवमेवाहमास्थितः। हेयोपादेय विरहाद् एवम् हर्षविषादयोः अभावाद् अद्य हे ब्रह्मन् एवमेवाहमास्थितः। आश्रमानाश्रमम् ध्यानम् चित्तस्वीकृतवर्जनम् विकल्पम् मम वीक्ष्यैतैः एवमेवाहमस्थितः। कर्मानुष्ठानमज्ञानाद् यथैव उपरमस्तथा बुद्ध्वा सम्यगिदम् तत्त्वम् एवमेवाहमस्थितः। अचिन्त्यम् चिन्त्यमानोऽपि चिन्तारूपम् भजत्यसौ त्यक्त्वा तद्भावनम् तस्माद् एवमेवाहमस्थितः। एवमेव कृतम् येन स कृतार्थो भवेदसौ, एवमेव स्वभावो यः स कृतार्थो भवेदसौ। ॐ